अथ श्री शिव षडक्षर स्तोत्रम् ओंकार विन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः कामदं मोक्षदं चैव ओंकाराय नमो नमः नमन् ऋषयो देवा नमन्त्यप्सरसाङ्गणाः नरा नमन्ति देवेशन्नकाराय नमो नमः महादेवं महात्मानं महाध्यानपरायणम् महापापहरं देवं मकाराय नमो नमः शिवं शान्तं जगन्नाथं लोकानुग्रहकारकं शिवमेकपदं नित्यं शिकाराय नमो नमः वाहनो वृषभो यस्य वासुकिक् कण्ठभूषणम् वामे शक्तिधरं देव वाकाराय नमो नमः यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः यो गुरुः सर्वदेवानायकाराय नमो नमः षडक्षरमिदं स्तोत्रं यः पठेत् शिवसन्निधौ शिवलोकमवाप्नोति शिवेन सह मोदते इति श्री रुद्रयामले उमामहेश्वर संवादे शिवषडक्षरस्तोत्रं सम्पूर्णम् ॐ शिवा।